एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। निर्वाचन आयोगेन प्रतिनिधि सभा सदस्यानां निर्वाचनेन सम्बद्धस्य एतत् विक्रम वर्षीयस्य प्रथम संशोधनाध्यादेशस्य अनुसारेण आसन्न निर्वाचनस्य कृते समानुपातिक निर्वाचन प्रणाल्यः समावेशि समूहस्य प्रतिशतं निर्धारितमस्ति। सर्वकारस्य अष्टसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य जनगणनायाः प्रतिवेदनस्य अनुसारेण दलितादिवासी जनजाति खसार्य थारू मधेशी मुस्लिमादीनां जनसंख्यायाः प्रतिशतमाधृत्य दलहि प्रत्याशिनां गोप्यसूची प्रस्तुतव्या। समानुपातिक निर्वाचन प्रणाल्याः कृते आवेदनं प्रस्तुतवद्भि दलहि असैव पौषमासस्य त्रयोदश चतुर्दशयोः दिवसयोः प्रातः दशवादनात् चतुर्वादनं यावत् प्रत्याशिनां गोप्यसूचेः प्रस्तुत्यर्थं समयः निर्धारितोऽस्ति। अत्रान्तरे आयोगेन अद्य प्रधानमन्त्रिणा सुशीला कार्किणा सहितै राजनैतिक दलानां प्रतिनिधिभिः सम्बद्धै पक्षैश्च सह निर्वाचनस्य पूर्वकार्यस्य सुरक्षा व्यवस्थायाः विधेय संशोधनस्य विषयेषु च विमृक्ष्यते इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। प्रधानमन्त्री सुशीला कार्की निगदति देशे शान्तेः स्थिरतायाश्च कृते प्रतिनिधिसभायाः निर्वाचनं निर्धारित समये एव सम्पादनीयम्। इलाम जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य निवर्तमान सांसदः सुहाङ नेम्बाङ इत्यस्य नेतृत्वस्य प्रतिनिधिमण्डलेन सह सिंहप्रासादे ह्यः सम्भूते मेलने प्रधानमन्त्री कार्की सर्वकारोऽयं निर्वाचनस्य कृते एव संघटितोऽस्तीत्यतः संशयं विनैव निर्वाचनस्य पूर्वकार्याय प्रवर्तितुम् अनुरुणत्। ह्य एव प्रधानमन्त्री कार्की तमो ह्योल छोजधि गुरूङ राष्ट्रिय परिषदः प्रतिनिधिमण्डलेन सह सम्भूते मेलने आत्मनः संस्कृतिः परम्परा च न विस्मर्तव्ये इति अगदत्। प्रधानमन्त्री कार्की संस्कृतिगतां कतिपया प्रतिकूल प्रथां त्यक्त्वा मौलिकीं वेशभूषां परम्परां च संरक्षितुं बलं दत्तवती। मधेश प्रदेशस्य सभामुख पदे जनता समाजवादी नेपालस्य प्रदेशसभायाः सदस्यः दलस्य प्रमुख सचेतक पदीयश्च रामाशिष यादवः निर्वाचितोऽस्ति। मधेश प्रदेशसभायाः ह्यस्तनोपवेशे उपस्थितेषु षण्णवत्यां सांसदेषु यादवः द्वासप्ततिं मतानि प्राप्य सभामुख पदे निर्वाचितोऽस्तीति उपसभामुख बबिता राउत ईशर उदघोषयत्। यादवस्य विपक्षे चतुर्विंशतिर्मतानि व्यक्तानि आसन्। सभामुखस्य पदस्य कृते जनता समाजवादी नेपालस्य प्रदेशसभायाः सदस्यस्य दलस्य प्रमुख सचेतक पदीयस्य रामाशिष यादवस्य नेकपा एमाले दलस्य प्रदेशसभा सदस्यस्य त्रिलोक प्रसादस्य च प्रत्याशिता पञ्जीभूता आसीत्। संचार सूचना प्रविधि मन्त्री जगदीश खरेलः भाषते जेन्जीयूनां समूहस्य आन्दोलनस्य मर्मणः अनुसारेण सुशासनस्य भ्रष्टाचार नियन्त्रणस्य च कृते निर्ममरूपेण कार्यं विधीयमानमस्ति। सर्वकार संघटनस्य मासत्रये मन्त्रालयात् सञ्जातानां प्रगतिं प्रस्तोतुं विहिते पत्रकार सम्मेलने मन्त्री खरेलः सर्वकारः समये एव निर्वाचनं सम्पादयितुं प्रतिबद्धोऽस्तीति चर्चयन् देशे निर्वाचनस्य वातावरणम् अनुकूलनं जायमानमस्तीति प्रावोचत्। मन्त्री खरेलः त्रिषु मासेषु संचारक्षेत्रे दूरसंचार सूचना प्रविधौ पत्राचार सेवायां मुद्रण सेवायां चलचित्रादिषु अन्येषु विविधेषु त्रिंशत् संख्यातेषु विषयेषु च सम्भूतः उपलब्धिः सार्वजनीकृतवान्। प्रधानमन्त्री सुशीला कार्की सम्पद शुद्धिकरणस्य निरीक्षण सूचितः नेपालं निष्कासयितुं विहितस्य पूर्वकार्यस्य विषये सम्बद्धै निकायैः सह जिज्ञासितवती वर्तते। प्रधानमन्त्री कार्की ह्य अर्थमन्त्रिणः रामेश्वर खनालस्य अर्थमन्त्रालयस्य राजस्व सचिवस्य भूपाल बरालस्य नेपाल राष्ट्रकोषस्य अधिशासकस्य डाक्टर विश्व पौडेलस्य च उपस्थितौ अनुसन्धान संस्थाभ्यः जिज्ञासितवती अस्तीति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। तदवसरे सम्पद शुद्धिकरणानुसन्धान विभागेन काष्ठमण्डप उपत्यकायां षट्शताधिकैकसहस्र रोपणि परिमिता भूमिः अवरोधिता अस्तीति ज्ञापितं वर्तते। प्रधानमन्त्रिणा सुशीला कार्किणा सह राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विधेयन मेलवार्ता विहितास्ति। बालुवा टारोवर्तिनी प्रधानमन्त्री निवासी ह्य सम्भूते अनयोर मेलने सामयिक विषयेष् विमृष्टमस्तीति प्रधानमन्त्रिण सचिवालयेन ज्ञापितम् वर्तते। शिक्षा विज्ञान प्रविधि मन्त्री महावीर पुन निगदति योगेन ध्यानेन च सम्बद्धान् विषयान् विद्यालये अतिरिक्त क्रियाकलापस्य रूपेण समावेष्टुम् निर्दिष्टम् वर्तते। द्वितीय विश्व ध्यान दिवसस्य अवसरे ह्य काष्ठमण्डपस्य टुडी खेलस्थाने आयोजिते कार्यक्रमे मन्त्री पुन योगेन ध्यानेन च सम्बद्धानां विषयाणां पर्यटनेन सह योजनस्य च आवश्यकता अस्तीति उदैरयत। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री डाक्टर सुधा शर्मा गौतमः परम्परागत चिकित्सा पद्धतेः रूपेण योगस्य आयुर्वेदस्य ध्यानस्य च विषयाः सर्वकारस्य नीति कार्यक्रमेषु समाविष्टाः सन्तीति चर्चयन्ति। अस्मिन् क्षेत्रे कार्यरताः संघ संस्थाः सहकार्यस्य कृते आगन्तुम् अनुरुणत। कार्यक्रमे ओशो तपोवनस्य स्वामी आनन्द अरूण ब्रह्म कुमारी राजयोग केन्द्रस्य प्रशिक्षक रामसिंह आयच ध्यानस्य अभ्यासम् अकारयताम्। पूर्वे दिहु नेपालस्य पक्षत जीवन विज्ञान प्रतिष्ठानस्य संस्थापकौ रमेश नेपाल एलपी भानु शर्मा च अमेरिका देशस्य न्यूयॉर्कवर्तिनी राष्ट्रसंघस्य मुख्यालये आयोजिते कार्यक्रमे विश्वव्यापिन शान्ते सद्भावस्य च कृते ध्यानमिति विषये प्रवचनम् ध्यानम् कृतवन्तौ आस्ताम्। संचार सूचना प्रविधि मन्त्री जगदीश खरेल निगदति अनलाइन दूरदर्शनस्य अनलाइन पत्रकारितायाश्च वृत्तिगत सुरक्षाया संस्थागत विकासस्य च कृते सर्वकार प्रतिबद्धो वर्तते। अनलाइन दूरदर्शन सेवाया पत्रकारै सह ह्य मन्त्रालये विहिते विमर्शने संचार मन्त्री खरेल नेपाले सञ्चाल्यमानानाम् अनलाइन दूरदर्शनानाम् अनलाइन संचार माध्यमानां च एवं तत्र कार्यरतानां संचारकर्मिणां च तथ्यांक विवरणमपि सर्वकारस्य पार्श्वे नास्तीति कारणेन लोककल्याणकारी विज्ञापनेन सह राज्यस्य पक्षतः प्रदीयमानेभ्य सेवा सौविध्येभ्य अनलाइन दूरदर्शन संचार माध्यमै वञ्चिति भवनस्य अवस्था वर्तते इत्यतः तथ्यांक विवरणस्य संकलनाय सर्वकारेण अनलाइन दूरदर्शन संचार माध्यमानां पञ्जीकरणस्य सूचीकरणस्य च कार्यं तत्कालं प्रारभ्यते इति अवोचत्। विधि न्याय संसदीय विषय मन्त्री अनिल कुमार सिन्हा विधायनाधिनियमस्य क्रियान्वयनस्य कार्ये सर्वकारः सम्प्रति सक्रियोस्तीति सूचयति। राष्ट्रिय सभायाः अन्तर्गतायाः विधायन व्यवस्थापन समितेः सार्वजनिक नीति प्रत्यायोजित विधायन समितेश्च संयुक्तोपवेशे विधि मन्त्री सिन्हा विधायनाधिनियमस्य क्रियान्वयनस्य पश्चात् निर्मितानाम् अधिनियमानाम् अध्यादेशानां च अभिलेखम् मन्त्रालये संस्थाप्य राष्ट्रियाभिलेखालये पत्र प्रेषणस्य कार्यं प्रारब्धमस्तीति असूचयत्। इति समाचारः।